कर्ता कर्ता भवति न यथा, कर्म कर्मापि नैव, ज्ञानं ज्ञानं भवति च यथा, पुत्कलः पुत्कलोऽपि, ज्ञानज्योतिर्ज्वलितमचलं व्यक्तमन्तस्थतोच्चैश्चिच्छक्तीनां निकरभरतोऽत्यन्तगम्भीरमेतत्।